देवस्यत्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णो हस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसा याभिषिञ्चामि देवस्यत्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णो हस्ताभ्याम् सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णो हस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यागुं सरस्वत्ये वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामि इन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि बृहस्पते स्वा साम्राज्येनाभिषिञ्चामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनस्यामाशास्ते उत्तरान्देव यज्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यं धामाशास्ते विश्वं प्रियमाशास्ते यदनेन हविषाशास्ते तदश्यातदृद्याद् तदस्मै देवारासन्दाम् द्रुपदादिवेरमुमुचानः त्रिन्नस्नाद्वेवलादिवा ओदम् पवित्रेणेवाज्यम् आवश्युन्दन्तुमैनसः भूर्भुवस्सुवोर्भूर्भुवस्सुवोर्भूर्भुवस्सुवः